ओम नमो भगवते वासुदेवाय। अथ षट्षष्टितमोऽध्यायः। श्रीशुक उवाच। नन्दव्रजं गते रामे करुषाधिपतिर्नृप, वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत्। त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतं, दूतं च प्राहिणोन्मन्दः कृष्णाया व्यक्तवर्त्मने। द्वारकायां यथा बालो नृपो बालकृतो बुधः, दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुं। कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत्। वासुदेवोऽवतीर्णोऽहमेक एव न चापरः, भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज। यानि त्वमस्मच्चिह्नानि मौढ्याद्विभर्षिधात्वत, त्यक्त्वैहि मां त्वं शरणं नो चेत् देहि ममाहवम्। श्रीशुक उवाच। कथनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः, उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा। उवाच दूतं भगवान् परिहासकथामनु, उत्स्रक्ष्ये मूढचिह्नानि यैस्त्वमेवं विकथसे। मुखं तदपि धायाज्ञ कङ्कगृध्रवटैर्वृतः, शयिष्यसे हतस्तत्र भविता शरणं शूनाम्। इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरत्। कृष्णोऽपि रथमास्थाय काशीमुपजगामः, पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः। अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुरा द्रुतम्। तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान् नृप, अक्षौहिणीभिस्त्रिशिभिरपश्यत् पौण्ड्रकं हरिः। शङ्खार्यसि गदा शार्ङ्ग श्रीवत्साद्युपलक्षितं, बिभ्राणं कौस्तुभमणिं वनमाला विभूषितम्। कौशेयवाससी पीते वसानं गरुडध्वजम्, अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम्। दृष्ट्वा तमात्मनस्तुल्यवेषं कृत्रिममास्थितं, यथा नटं रङ्गगतं विजहासभृशं हरिः। शूलैर्गदाभिः परिघैः सकृष्टिप्रासतोमरैः, असिभिः पट्टिषैर्बाणैः प्राहरन्नरयो हरिम्। कृष्णस्तु तत्पौण्ड्रककाशिराजयोर्बलं गजस्यन्दनवाजिपत्तिमत्, गदासि चक्रेषुभिरार्दयद्भृशं यथा युगान्ते हुतभुक् पृथक् प्रजाः। आयोधनं तद्रथवाजिकुञ्जरद्विपत्खरोष्ट्रैररिणावखण्डितैः, बभौ चितं मोदवहं मनस्विनामाक्रीडनं भूतपतेरिवोल्बणम्। अथा पौण्ड्रकं शौरिर्भोभो पौण्ड्रक यद्भवान्, दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते। त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञमृषाधृतं, व्रजामि शरणं तेद्य यदि नेच्छामि संयुगम्। इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकं, शिरोवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः। तथा काशीपते कायाच्छिर उत्कृत्य पत्रिभिः, न्यपातयत् काशीपुर्यां पद्मकोशमिवानिलः। एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरिः, द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः। स नित्यं भगवद्ध्यान प्रध्वस्ताखिलबन्धनः, बिभ्राणस्य हरे राजन् स्वरूपं तन्मयोऽभवत्। शिरः पतितमालोक्य राजद्वारे स कुण्डलम्, किमिदं कस्य वा वक्त्रमिति संशिशिरे जनाः। राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः, पौराश्च हा हता राजन्नाथनाथेति प्रारुदन्। सुदक्षिणस्तस्य सुतः कृत्वा संस्था विधिं पितुः, निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः। इत्यात्मनापि सन्धाय सोपाध्यायो महेश्वरम्। सुदक्षिणोऽर्चयामास परमेण समाधिना, प्रीतो विमुक्ते भगवान्स्तस्मै वरमदाद्भवः। पितृहन्त्रिवधोपायं सवव्रे वरमीप्सितम्, दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम्। अभिचारविधानेन स चाग्निः प्रमथैर्वृतः, साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः। इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती, ततोऽग्निरुत्थितः कुण्डान् मूर्तिमानतिभीषणः, तप्ततामृशिखास्मश्रुरङ्गारोद्गारिलोचनः। दंष्ट्रोऽग्रभ्रुकुटीदण्डकठोरास्यः स्वजिह्वया, आलिहन् सृक्किणीनग्नो विधुन्वन् स्त्रिशिखं ज्वलन्, पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम्। सोऽभ्यधावद्वृतो भूतैर्द्वारकां प्रदहन् दिशः, तमाभिचारदहनमायान्तं द्वारकौकसः। विलोक्य त्रसु सर्वे वनदाहे मृगा यथा अक्षयी सभायां क्रीडन्तं भगवन्तं भयातुराः त्राहि त्राहि त्रिलोकेश वन्ये प्रदहतः पुरम् श्रुत्वा तज्जन वैक्लव्यं दृष्ट्वा स्वानां च साध्वसं शरण्यः सम्प्रहस्याः मा भैष्टेत्यवितास्म्यहम् सर्वस्यान्तर्बहिः साक्षीकृत्यां माहेश्वरीं विभुः विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्ज्वल्यमानं प्रलयानलप्रभम् स्वतेजसाखं ककुभोऽथरोदसी चक्रं मुकुन्दास्त्रमथाग्निमार्दयत् कृत्यानलः प्रतिहत सरथाङ्गपाणेरस्त्रौजसा सन्नृपभग्नमुखो निवृत्तः वाराणसीं परिसमेत्य सुदक्षिणं तं सर्त्विग्जनं समदहत् स्वकृतोऽभिचारः चक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम् सगोपुराट्टालककोष्ठसङ्कुलाम् सकोशहस्त्यस्वरथान्नशालाम् दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनं भूयः पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मणः य एतच्छ्रावयेन्मर्त्य उत्तमश्लोकविक्रमम् समाहितो वा शृणुयात् सर्वपापैः प्रमुच्यते। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे पौण्ड्रकादिवधो नाम षट्षष्टितमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।